अयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी ह्यः नवदेहल्याः सेवातीर्थस्थले प्रगति इति सूचना संचार प्रौद्योगिकी आधारित मञ्चस्य 250तमोपवेशनस्य अध्यक्षताम् विहितवान्। अस्यां गोष्ठ्यां श्रीमोदी चतुर्ष् राज्येष् विस्तृतान् मार्ग विद्युत औद्योगिकी वीथि तथा मेट्रो रेलवे क्षेत्राणां चतुर्प्रमुखान् आधारभूत संरचना प्रकल्पान् समीक्षितवान्। एतेषां प्रकल्पानाम् आहत्य व्ययः प्रायः 30,000 कोटि रूप्यकाणि अस्ति। आर्थिक विकासं क्षेत्रीय सम्पर्कम् औद्योगिक विकासं तथा जनकल्याणं वर्धयितुं संधारिताः एते प्रकल्पाः समयसीमा विभिन्न संस्थानां समन्वयः तथा प्रलम्बित विषयाणां शीघ्र निवारणाय विशेष ध्यानेन सह सन्ति समीक्षिताः। अद्यतावत् संविधान हत्या दिवसो वर्तते। दिवसोऽयं तस्याः घटनायाः स्मरणं कारयति यदा 75th जून मासस्य 25th दिनांके भारतीय संविधानस्य अवमानना कृता। अनेन सहैव अयं दिवसः आपत्काले अत्याचारैः प्रताडितेभ्यः प्रत्येकं जनेभ्यः श्रद्धांजलिम् अर्पयितुं दिवसो वर्तते। अस्मिन्नेव दिने तत्कालीनः राष्ट्रपतिः फखरुद्दीन अली अहमदः आन्तरिक अशान्तेः कारणं प्रदर्श्य देशे राष्ट्रियापत्कालस्य घोषणाम् अकरोत्। देहल्याम् अस्य मासस्य 30th दिनांकात् आरभ्यमाणस्य मतदात्री सूचीनां विशेष गहन पुनरीक्षणस्य अन्तर्गतम् गृहं गृहं गत्वा गणना कार्यक्रममभिलक्ष्य देहल्याः मुख्य निर्वाचनाधिकारिण ह्यः नवदिल्ल्यां विभिन्न राजनैतिक दलानां प्रतिनिधिभिः सह एका सभा आहूता। मुख्य निर्वाचनाधिकारिणः एकेन विवरणेन स्पष्टीकृतं यत् अस्यां गोष्ठ्यां भारतीय जनता पार्टीति दलम् आम आदमी पार्टीति दलं तथा भारतीय राष्ट्रीय कांग्रेस इत्यादि प्रमुखाणां राजनैतिक दलानां प्रतिनिधयः समुपस्थिताः आसन्। कार्यालयानुसारं मुख्य निर्वाचनाधिकारी प्रत्यपादयत् यत् कोऽपि योग्यः नागरिकः न वञ्चितः स्यात्, सहैव कोऽपि अयोग्यः जनः मतदात्री सूच्यां न सम्मिलितो भवेत्। अनेन सहैव गणनाचरणे अनुपालनीयानां प्रमुखाणां गतिविधीनां विषयेऽपि राजनैतिकदलानि विस्तरेण सूचितानि। भारतीय ऋतु विज्ञान विभागेन अद्य देशस्य उत्तर पूर्वीय क्षेत्रेष् झारखण्ड महाराष्ट्र ओडिशा उपहिमालय पश्चिम बंग तेलंगाना तटीय कर्नाटक कोंकण समेत्य गोवा क्षेत्रस्य कतिपयेष् भागेष् अतिवृष्टेः पूर्वानुमानं प्रख्यापितम्। विभागानुसारम् अद्य पश्चिम राजस्थान क्षेत्रे झंझावातस्य संभावनापि वर्तते। अत्रावधेयं यत् अद्य बिहार पूर्व मध्य प्रदेश पूर्व उत्तर प्रदेशस्य च नाना स्थानेषु उष्ण तरंगस्य अनुमानमपि विभागेनानेन प्रकटीकृतम्। अपरत्र अद्य देहल्याम् आंशिक रूपेण मेघाच्छादनं नभः भविष्यति, सहैव अपराह्णे सायंकाले वा विद्युत् गर्जनेन वृष्टेः संभावनापि वर्तते। सम्प्रति क्रीडा वार्तासु आईसीसी महिला टी20 विश्व कप स्पर्धायाम् अद्य भारतस्य सम्मुखीकरणं बांग्लादेशेन सह भविष्यति। स्पर्धेयं मैनचेस्टर नगरस्य एमिरेट्स ओल्ड ट्रेफोर्ड क्रीडांगणे आयोज्यते। या भारतीय समयानुसारं सायंकाले 7 वादने समारप्स्यते। हरमनप्रीत कौरस्य नेतृत्वे भारतीय महिला दलं विमेन इन ब्लू सम्प्रति स्वसमूहे द्वितीयं स्थानं भजते। इति वार्ताः।